श्रीमद्भागवत महापुराणम् तृतीयस्कन्धः अथैकविंशोऽध्यायः विदुर उवाच स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः कथ्यताम् भगवन् यत्र मैथुनेनैधिरे प्रजाः प्रियव्रतो तान् पादौ सुतौ स्वायम्भुवस्य वै यथा धर्मै जुगुपतुस्सप्तद्वीपवती महीम् तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता पत्नी प्रजापतेरुक्ता कर्दमस्य त्वया नघ तस्यां स वै महायोगी युक्तायां योगलक्षणैः ससर्जकतिधावीर्यन् तन्मे शुश्रूषवे वद रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणस्तुतः यथा ससर्जभूतानि लब्ध्वा भार्याय च मानवीम् मैत्रेय उवाच प्रजा सृजेति भगवान् कर्दमो ब्रह्मणोदितः सरस्वत्यान्तपस्तेऽपि सहस्राणां समादश ततः समाधियुक्तेन क्रियायोगेन कर्दमः सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् तावत् प्रसन्नो भगवान् पुष्कराक्ष कृते युगे दर्शयामास तं क्षत्तश् शाब्दं ब्रह्म दधद्वपुः सतौ विरजमर्काभं सितपद्मोत्पलस्रजम् स्निग्धनीलालकव्रातवक्त्राब्जं विरजोम्बरम् किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् श्वेतोत्पलक्रीडनकं मनस्पर्शस्मितेक्षणम् विन्यस्तचरणाम्भोजामंसदेशे गरुत्मतः दृष्ट्वाखेव स्थितौ वक्षश् श्रियङ्कौ स्तुभकन्धरम् जातहर्षोपतन्मूर्ध्ना क्षितौ लब्धमनोरथः गीर्भिस्त्वभ्यगृणात् प्रीतिस्वभावात्मा कृताय जलिः ऋषिरुवाच जुष्टं बताद्याखिलसत्त्वराशिस् सां सिद्ध्यमक्ष्णोस्तव दर्शनान्नः यद्दर्शनै जन्मभिरीड्य सद्भि राशासते योगिनो रूढयोगाः ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम् उपासते कामलवाय तेषां राशीशकामान्निरयेऽपि ये स्युः तथा स चाहं परिवोढुकामस् समानशीलां गृहमेधधेनुम् उपेयिवान्मूलमशेषमूलन् दुराशयः कामदुहाङ्ग्रिपस्य प्रजापतेस्ते वच साधीशतन्त्या लोकः किलायं कामहतोऽनुबद्धः अहै च लोकानुगतो वहामि बले च शुक्लानिमिषाय तुभ्यम् लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः न तेजराक्षभ्रमिरायुरीशान् त्रयोदशारं त्रिशतं षष्टिपर्व षण्णीम्यनन्तच्छदियत्रिणाभि करालस्रोतो जगदाच्छिद्यधावत् एकस्वयं सै जगतस्य सृक्षया द्वितीययात्मन्नधियोगमायया सृजस्यदः पासि पुनर्ग्रसिष्यसि यथोर्णनाभिर्भगवन् स्वशक्तिभिः नैतद्बताधीशपदन्तवीप्सितै यन्माययानस्तनुषे भूतसूक्ष्मम् अनुग्रहायास्त्वपि अर्हि मायया लसत्तुलस्यातनुवा विलक्षितः तन्त्वानुभूत्यो परतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् नमाम्यभीक्ष्णन्नमनीयपाद सरोजमल्पीयसि कामवर्षम् ऋषिरुवाच इत्यव्यलीकं प्रणुतो जनाभस्तमाबभाषे वचसामृतेन सुपर्णपक्षो परिरोचमानः प्रेमस्मितो वीक्षणविभ्रमद्ब्रूः श्रीभगवानुवाच विदित्वा तव चैत्यं मे पुरैव समयोजितत् यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः न वै जातु मृषैव स्यात् प्रजाध्यक्षमदर्हणम् भवद्विधीष्वतितराम् मयि सङ्गृहीतात्मनाम् प्रजापतिसुतः सम्राण् मनुर्विख्यातमङ्गलः ब्रह्मावर्तयो दिवसन् शास्ति सप्तार्णवामही सचेह विप्रराजर्षिर्महिष्या शतरूपया आयास्यति दिदृक्षुस्त्वाम् परशो धर्मकोविदः आत्मजामसि तापाङ्गी वयशीलगुणान्विताम् मृगयन्तीं पतिं दास्यत् यनुरूपायते प्रभो समाहितन्ते हृदयै यत्रे मान् परिवत्सरान् सा त्वां ब्रह्मन् नृपवधूक् काममाशु भजिष्यति यात आत्मभृतं वीर्यन् नवधा प्रसविष्यति वीर्ये त्वदीये ऋषय आधास्यन्त्यैजसात्मनः त्वयि च सम्यगनुष्ठाय निदेशम् मौषत्तमः मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे कृत्वा दयाय च जीवेषु दत्त्वा चाभयमात्मवान् मय्यात्मानं सह जगत् द्रक्ष्यस्यात्मनि चापि माम् सहाहं स्वां शकलया त्वद्वीर्येण महामुने तव क्षेत्रे देवभूत्यां प्रणेष्ये तत्त्वसंहिताम् मैत्रेय उवाच एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः जगामबिन्दुसरसस् सरस्वत्या परिश्रितात् निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतः सिद्धमार्गः आकर्णयन् पत्ररथीन्द्रपक्षै रुच्चारितं स्तोममुदीर्णसाम अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् मनुष्यन्दनमास्थाय शातकौम्भपरिच्छदम् आरोप्य स्वान्दुहितरं सभार्यः पर्यटन् महीम्। तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् उपायादाश्रमपदम् मुनीशान्तव्रतस्य तत्। यस्मिन् भगवतो नेत्राण्यपतन्नश्रुबिन्दवः कृपया सम्परीतस्य प्रपन्नेऽर्पितया वृषम्। तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् पुण्यं शिवामृतजलम् महर्षिगणसेवितम्। पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः सर्वर्तुफलपुष्पाढ्यौ वनराजिश्रियान्वितम्। मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् मत्तबर्हिनटाटोप माह्वयन्मत्तकोकिलम्। कदम्बचम्पकाशोककरैजपकुलासनैः कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम्। कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः सारसैश्चक्रवाकैश्च चकोरैर्वल्गुकूजितम्। तथैव हरिणैः क्रोडैश्वाविद्गवयकुञ्जरैः गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिरृतम्। प्रविश्य तत्तीर्थवर मादिराजसहात्मजः ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम्। विद्योतमानौ वपुषा तपस्युग्रयुजाचिरम् नातिक्षामं भगवतस्निग्धापाङ्गावलोकनात्। तद्व्यारुतामृतकला पीयूषश्रवणेन च प्रांशुं पद्मपलाशाक्षै जटिलै चीर वाससम् उपसंसृत्य मलिनै यथार्हणमसंस्कृतम्। अथोटजमुपायातन्द्रुदेवं प्रणतं पुरः सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया। गृहीतार्हणमासीनं संयतम् प्रीणयन् मुनिः स्मरन् भगवदादेश मित्याहश्लक्ष्णया गिरा। नूनैचङ्क्रमणं देवा सतां संरक्षणाय ते वधाय चासतायस्त्वम् हरीशक्तिर्हि पालिनी। योर्कन्वग्नीन्द्रवायूनाय यमधर्मप्रचेतसाम् रूपाणि स्थानाधत्से तस्मै शुक्लाय ते नमः। नयदा रथमास्थाय जैत्रं मणिगणार्पितं विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्। स्वसैन्यचरणक्षुण्णौ वेपयन्मण्डलं भुवः विकर्षन् बृहतीं सेनां पर्यटस्यं शुमानिव। तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः भगवद्रचिता राजन् भिद्येरन्ब तदस्युभिः। अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः शयाने त्वयि लोकोऽयन् दस्युग्रस्तो विनङ्क्ष्यति। अथापि पृच्छे तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः। ॐ सर्वं श्रीनारायणार्पणमस्तु।